एस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल अस्यैव वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम् निर्वाचनाय प्रत्याशिनाम् मनोनयन प्रक्रिया प्रारब्धा वर्तते। त्रिपञ्चाशत् अधिक सप्तशते एव स्थानीय स्तरेषु स्थापितेषु निर्वाचनाधिकृतानाम् कार्यालयेषु ह्य पूर्वाह्नस्य दशवादनात् प्रत्याशिनाम् मनोनयनम् प्रारब्धमिति निर्वाचन आयोगो ज्ञापयति। अद्य अपराह्नस्य पञ्चवादने मनोनयन पञ्जीकरणस्य समाप्तेः पश्चात् अद्य सायमेव प्रत्याशिनाम् अन्तिम नामा प्रकाश्यते। नेपाली कांग्रेस दलेन स्थानीय स्तराणाम् एतत् विक्रम वर्षीय निर्वाचनस्य कृते घोषणापत्रम् सार्वजनिक कृतम् वर्तते। सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालय ह्य सभापतिना सर्वदेवाभिधेन सह शीर्ष नेतृभिः संयुक्त रूपेण नेपाली कांग्रेस दलस्य संकल्प सार्वजनिक कृतो वर्तते। सबल स्थानीय सर्वकार समुन्नतो ग्राम समुन्नतम् नगरम् इति समाघोषयुते घोषणापत्रे कांग्रेस दलेन समुन्नत नेपालस्य मार्गचित्रम् समुन्नत्यै आर्थिक सामाजिक आधारा सबल स्थानीय सर्वकाराय दलेन अवलम्बिता मूल कार्यसूची च समाविष्टा सन्ति। घोषणापत्रे शिक्षाया स्वास्थ्यस्य प्राकृतिक स्रोतसाम वातावरणस्य सेवा प्रवाहस्य स्थानीय पूर्वाधाराणाम् च विषयेभ्य प्राथमिकता प्रदत्ता वर्तते। कृष्युद्योम स्थानीय सर्वकारस्य सबल स्तम्भस्थिति हेतो समुचित शासनस्य आधार कृष्युद्यम एव अस्तिति घोषणापत्रे निर्धारितम् वर्तते। दलेन स्वघोषणापत्रे नागरिकाणाम् ज्ञानम् शिल्पम् च विवर्ध्य जीवनस्तरम् उन्नेतुम् सुशासनम् सुदृढीकर्तुम् नागरिकान् उद्यमेन सह संयोज्य अग्रे नेतुम् च प्रतिबद्धता व्यक्ता वर्तते। दलेन अविलम्बितया नीत्या उत्पादनम् वितरणम् च समान रूपेण अग्रे प्रवर्ध्य समावेशिनीम् आर्थिक वृद्धिम् विधाय आर्थिक कूटनीतेः माध्यमेन वैदेशिक सहयोगम् प्रवर्ध्य च आत्मनिर्भर मुखिनः अर्थतन्त्रस्य विकासो विधास्यतेति ज्ञापितमस्ति। नेपाली कांग्रेस दलेन महानगरपालिकानाम् प्रमुखाणाम् उपप्रमुखाणाम् च प्रत्याशिनाम् चयनस्य दायित्वम् दलसभापतये शेरवालदेवाभिधेयाय प्रदातुम् निर्णीतमस्ति। दलसभापतेः देवाभिधस्य सभापत्ये ह्य सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टेन केन्द्रीय कार्य सम्पादन समितेः उपवेशेन महानगरपालिकानाम् प्रमुखाणाम् उपप्रमुखाणाम् च प्रत्याशिनाम् अन्तिम निर्णयनस्य अधिकारम् सभापतये देवाभिधेयाय दातुम् निर्णीतमिति कांग्रेस दल कार्यालय मुख्य सचिवेन कृष्ण प्रसाद पौडेलेन प्रकाशितायाम् विज्ञप्तौ उल्लिखितम् वर्तते। उपवेशेन कांग्रेस दलस्य विधानानुसारम् केन्द्रीय संसदीय समितौ केन्द्रीय कार्य समितेः पदाधिकारिणः पदेन सदस्यान् निर्धारयितुम् दलस्य वरिष्ठ नेतारम् रामचन्द्र पौडेलम् केन्द्रीय संसदीय समितेः सदस्यम् मनोनेतुम् च निर्णीतमिति विज्ञप्तौ उल्लिखितमस्ति। जनता समाजवादी दलेन एतत् विक्रम वर्षीय स्थानीय निर्वाचनस्य नैर्वाचनिकम् घोषणापत्रम् सार्वजनिकृतम् वर्तते। दलस्य केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे दलस्य शीर्ष नेतृभिः घोषणापत्रमिदम् सार्वजनिकृतमस्ति। घोषणापत्र सार्वजनिकरण कार्यक्रमे दलस्य अध्यक्ष उपेन्द्र यादवः अवोचत् गुणस्तरीय शिक्षा वृत्त्युपार्जनञ्च प्राथमिकतायाम् स्थापिते स्तः। एवमेव संघीय परिषदः अध्यक्ष बाबुराम भट्टराई अभाषत जनतायाः आवश्यकतायाः अनुसारेण प्रतिगृहम् प्राप्य सेवा प्रवाहस्य मुख्य प्रतिबद्धता घोषणापत्रे व्यक्ता वर्तते। घोषणापत्रे प्रतिपालकम् चतुष्पथ निर्माणम् स्वास्थ्य शिक्षायो निःशुल्कम् प्रदानम् सर्वेषाम् नागरिकेषु सर्वेषु नागरिकेषु पेयजलस्य प्रापणम् सर्वेषु ग्रामेषु नगरेषु च अवकर प्रणाल्याः व्यवस्थापनम् सिंचने अनुदान सहयोगः संवेदनशील वसतीनाम् पालिकायाः समन्वय सुरक्षित स्थानेषु स्थानान्तरणम् च करिष्यन्ते चेत्यादि प्रतिबद्धताः व्यक्ताः सन्तीति जनता समाजवादी दलस्य स्थानीय स्तर निर्वाचन परिचालन मूल समितेः संयोजकः अशोक राई ज्ञापितवान्। राष्ट्रपतिः विद्यादेवी भण्डारी निगदति देशस्य अर्थतन्त्रस्य सुधाराय सर्वैः एकीभूय प्रवर्तनीयम्। नेपाल जनप्रशासन संघेन ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते हेम बहादुर मल्ल सम्मान पुरस्कार वितरण कार्यक्रमे राष्ट्रपतिः भण्डारी अगदत् आर्थिक सुधारम् विधाय विकासस्य गतिः वर्धनीया। राष्ट्रपतिः भण्डारी समुन्नत राष्ट्रस्य निर्माणार्थम् प्राकृतिक स्रोतसाम सबलोपयोगाय बलम प्रादात। राष्ट्रपति भण्डारी सुदृढार्थतन्त्रस्य निर्माणाय शिक्षा स्वास्थ्ययो क्षेत्रे राज्यस्य निवेशनम् प्रवर्ध्य क्षमाम् स्वस्थ जनशक्तिम् उत्पादयितुम् सर्वैः स्वस्वक्षेत्रात् भूमिकाम् निर्वोढुम् अन्वरुणात्। कार्यक्रमे अधिकार दुरुपयोगानुसन्धानायोगस्य पूर्व प्रमुखायुक्तः सूर्यनाथ उपाध्यायः, षड्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीय हेमबहादुर मल्ल सम्मान पुरस्कारेण सम्मानितः आसीत्। पुरस्कारस्य राशौ लक्षद्वयं रूप्यकाणि वर्तन्ते। अस्यैव वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानस्य स्थानीय स्तराणाम् निर्वाचनस्य सम्बन्धे सुरक्षा निकायानाम् प्रमुखाणाम् मध्ये विमृष्टमस्ति। चतुर्णामेव सुरक्षा निकायानाम् प्रमुखाणाम् मध्ये ह्य सैनिक कार्यालय स्थानीय स्तराणाम् निर्वाचनस्य स्वतन्त्रे निष्पक्षे विश्वसनीय भयरहिते च वातावरणे सम्पादनाय नेपाल सर्वकारात् सुरक्षा निकायेभ्य प्राप्तस्य दायित्वस्य पारस्परिक समन्वयेन सहकार्येण च प्रभावकारी रूपेण क्रियान्वयनस्य विषये विमृष्टमिति सैनिक सम्पर्क सूचना निर्देशनालयो ज्ञापयति। तदवसरे युद्ध कार्य निर्देशनालयस्य निर्देशकेन स्थानीय स्तराणाम् निर्वाचनाय नेपाली सेनाया अधुनावधि विहितानाम् कार्याणाम् प्रगति विवरणस्य भविष्यति अन्यैः सुरक्षा निकायैः सह समन्वयाय विधातव्यानां विषयाणां च सम्बन्धे प्रस्तुतीकरणं विहितम् आसीत्। स्थानीय स्तर निर्वाचनिक कृत सुरक्षा योजनायाः अनुसारेण नेपाली सेनायै प्राप्तस्य कार्यादेशस्य अनुरूपम् वैशाख मासस्य प्रथम दिवसतः मतदान केन्द्राणाम् निरीक्षणस्य मतपत्रस्य सुरक्षायाः सुरक्षा निकायै सह समन्वयम् विधाय सुरक्षा संवेदनशीलतायाः आकलनस्य च कार्याणि विधीयमानानि सन्तीति नेपाली सेनायाः प्रवक्ता नारायण सिलवालः अज्ञापयत। स्थानीय स्तराणाम् निर्वाचनाय नेपाली सेनायाः एकसप्ततिः सहस्राणि सैनिकाः परिचालयिष्यन्ते इति च प्रवक्ता सिलवालः ज्ञापितवान्। धादिङ जनपदस्य थाक्रे ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य जुङ्गे खोलास्थाने ह्यो बसयान कारयानयोः परस्परं संघटितयोः सतोः पञ्चजनाः मृताः सन्ति। काष्ठमण्डपात् धादिङ जनपदाय प्रस्थीयमानं बसयानं काष्ठमण्डपं प्रति आगच्छता कारयानेन सह संघटितं सद् कारयाने आरूढाः पञ्चजनाः एव मृताः सन्तीति धादिङ जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकः जागेश्वर भण्डारी ज्ञापितवान्। मृतकेषु कारयान चालकः तनहु जनपदस्य खैरेनी स्थानस्य 37 वर्षीय दिलबहादुर बस्नेत, भारतस्य उत्तर देशस्य 44 वर्षीयः विमल चन्द्र अग्रवालः, 35 वर्षीया साधना अग्रवालः, 44 वर्षीया सन्ध्या अग्रवालः, 55 वर्षीयः राकेश अग्रवालश्च वर्तन्ते। बसयाने आरूढः धादिङ जनपदस्य नीलकण्ठ नगरपालिकायाः एकादश वडा क्षेत्रस्य 24 वर्षीयः राम परियारः आहतो वर्तते। आहतस्य एतस्य काष्ठमण्डप वर्तिनी ट्रमा सेन्टर चिकित्सालये उपचार विधीयमानोस्तीति प्रहरी ज्ञापयति। अधिकार दुरूपयोग अनुसन्धानायोगेन महेन्द्रनगर नगर विकास समितेः तात्कालिकाध्यक्षेण गोपाल रसाइली इत्यनेन, भूशुल्क व्यवस्थापन कार्यालयस्य प्रमुखेण विशन सिंह थापा इत्यनेन च सहितानां 64 जनानां विरुद्धे ह्यो भ्रष्टाचार सम्बद्धं न्यायिक प्रकरणं पञ्जीकारितं वर्तते। इति समाचाराः।